इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। यूरोपीय संघस्य उपाध्यक्षा काजा कल्लास इत्यनया उक्तं यत् यूरोपीय संघ भारतयोः मध्ये सुरक्षा रक्षा सहयोग सन्धिषु अद्य हस्ताक्षरं भविष्यति। यूरोपीय परिषदः अध्यक्षः एंटोनियो कोस्टा, यूरोपीय आयोगस्य अध्यक्षा उर्सुला वान डेर लेयेन च राजकीय यात्रायै भारते सन्ति। ते षोडशतमे भारत यूरोपीय संघ शिखर सम्मेलनस्य सह अध्यक्षतां करिष्यन्ति। कल्लास इत्यनया उक्तं यत् भारतेन सह निकटतया सहकार्यम् अद्यतनीय आवश्यकता वर्तते। प्रधानमंत्री श्री नरेन्द्र मोदी अद्यारभ्य 30 जनवरी पर्यन्तं दक्षिण गोवायाम् आयोज्यमानस्य भारत ऊर्जा सप्ताह शिखर सम्मेलनस्य दृश्य श्रव्य माध्यमेन उद्घाटनं करिष्यति। उद्घाटनानन्तरं प्रधानमंत्री प्रतिनिधीनपि संबोधयिष्यति। दक्षिण गोवा मण्डलस्य बेतुल ग्रामे आयोजिते उद्घाटन समारोहे केन्द्रीय पेट्रोलियम प्राकृतिक गैस मंत्री हरदीप सिंहपुरी, यूएई उद्योग उन्नत प्रौद्योगिकी मंत्री डॉ सुल्तान अहमद अल जाबेर, कनाडा देशस्य ऊर्जा प्राकृतिक संसाधन मंत्री टिम हाजसन तथैव आफ्रिका पश्चिम एशिया मध्य एशिया वैश्विक दक्षिण देशयोः वरिष्ठ मंत्रिण च भागं गृह्णन्ति। देशेन ह्यः 77वां गणतंत्र दिवसः आचरितः। नवदिल्ल्याः कर्तव्यपथे आयोजिते भव्य पथसंचलने देशस्य सांस्कृतिक वैविध्यम् आर्थिक प्रगतिः सैन्यशक्तिः च प्रदर्शिताः। राष्ट्रपतिः द्रौपदी मुर्मुः मुख्य समारोहे राष्ट्रस्य नेतृत्वं कृतवती, यस्य समारंभस्य आरम्भः प्रधानमन्त्रिणः नरेन्द्र मोदिनः राष्ट्रिय युद्ध स्मारकस्य परिक्रमणेन अभवत्, यत्र सः देशाय बलिदातॄणां कृते पुष्पश्रद्धाञ्जलिं समार्पयत्। राष्ट्रपतिः पथसञ्चलनस्य मुख्यातिथिभिः यूरोपीय परिषदः अध्यक्षेन एंटोनियो कोस्टा इत्यनेन, यूरोपीय आयोगस्य उपाध्यक्षया उर्सुला वान डेर लेयेन इत्यनया च सह अश्वरथे उपविश्य कर्तव्यपथं प्रति आगतवती। राष्ट्रपतिः त्रिवर्णध्वजस्य उत्तोलनं कृतवती। तदनन्तरं राष्ट्रियगीतस्य वादनम् एकविंशति भुशुण्डिका प्रणामश्च अभवत्। राष्ट्रपतिः द्रौपदी मुर्मुः गणतन्त्रदिवसस्य अवसरे राष्ट्रपतिभवने स्वागतसत्कारं कृतवती। यूरोपीय परिषदः अध्यक्षः एंटोनियो कोस्टा, यूरोपीय आयोगस्य अध्यक्षा उर्सुला वान डेर लेयेन, उपराष्ट्रपतिः सीपी राधाकृष्णन, प्रधानमन्त्री श्रीनरेन्द्र मोदी, अन्ये गणमान्यजनाः अस्मिन् समारोहे उपस्थिताः आसन्। केन्द्रीय संसदीय कार्यमन्त्री किरण रिजिजुः बजट सत्रात् पूर्वं प्रमुख राष्ट्रिय विषयेषु विधायि व्यापारे च चर्चां कर्तुम् अद्य प्रातः 11 वादने सर्वदलीय सभाम् आहूतवान्। मुख्य समिति कक्षायाम् एषा सभा भविष्यति। सभायाः उद्देश्यं विधायिक व्यापारस्य सुव्यवस्थितीकरणं तथा च सत्रस्य कालखण्डे आगमिष्यमाणानां प्रमुखानां राष्ट्रिय विषयाणां प्रबन्धनं करणीयमस्ति। यद्धि 28 जनवरीतः आरभ्य अप्रैल मासस्य द्वितीय दिनांकपर्यन्तं प्रचलति। अस्य प्रथमचरणं 28 जनवरीतः 13 फरवरी पर्यन्तं निर्धारितम् अस्ति, यत्र हि द्वितीयचरणं मार्च नवम दिनांकात् अप्रैल मासस्य द्वितीय दिनांकपर्यन्तं भविष्यति। बजट सत्रे 30 उपवेशनानि भविष्यन्ति। भाजपादलस्य नवनियुक्तः राष्ट्रिय अध्यक्षः नितिन नवीनः अद्यारभ्य दिनद्वयं पश्चिमबंगराज्यस्य प्रथम आधिकारिक यात्रायां भविष्यति। अस्मिन्नवसरे सः राज्यसभानिर्वाचनात् पूर्वं दलस्य मूलरूपरेखां सुदृढं कर्तुं प्रमुखसंघटना सम्मेलनस्य श्रृंखलायां भागं ग्रहीष्यति। अद्य जिम्बाब्वे देशस्य बुलवायोनगरे ऊना 19 आयुर्वर्गस्य क्रिकेट विश्व चषक क्रीडायां भारतं जिम्बाब्वे दलं विरुध्य क्रीडिष्यति। इदं क्रीडाद्वन्द्वं भारतीय कालमानानुसारेण अपराह्ने 1 वादने आरप्स्यते। इति वार्ताः।